इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः ईरानदेशस्य राष्ट्रपतिना डॉक्टर मसूद पेजेशकियन इत्यनेन सह वार्तालापं कृत्वा ईद नवरोज उत्सवयोः शुभाशयाः प्रदत्ताः। अयम् उत्सवकालः पश्चिम एशियायां शान्तिं स्थिरतां समृद्धिं च आनयेदिति उभौ नेतारौ आशां प्रकटितवन्तौ। सामाजिकान्तर्जालीये सन्देशे प्रधानमन्त्री श्रीमोदी अस्मिन् क्षेत्रे महत्वपूर्णमूलसौकर्याणामुपरि आक्रमणस्य निन्दाम् अकरोत्, येन वैश्विक आपूर्तिशृङ्खलाः च बाधिताः भवन्ति। ईरानदेशे भारतीयनागरिकाणां सुरक्षायै ईरानदेशस्य निरन्तरसमर्थनाय च श्रीमोदी ईरानदेशस्य प्रशंसाम् अकरोत्। सर्वकारेण राज्येभ्यः वाणिज्यिक एलपीजी इति वात्यन्धनकोषाणां 20% इतोऽपि आवंटनाय अनुमोदनं स्वीकृतमस्ति। आवंटनमिदं पीएनजी इत्यस्य 10% वर्तते। आहत्य आवंटनमिदं 50% यावत् भविष्यति। अतिरिक्तमिदं आवंटनं प्राथम्येन भोजनालयेषु, ढाबाख्येषु, आहारालयेषु, होटलाख्येषु, विश्रामस्थलेषु, औद्योगिक भोजनालयेषु, दुग्धशालासु, राज्येन अथवा स्थानीय निकायैः संचालितेषु अनुदान प्राप्त भोजनालयादिषु प्राधान्येन दीयते। एतस्मिन् विषये पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य सचिवः नीरज मित्तलः सर्वेषां राज्यानां केन्द्रशासित प्रदेशानां च मुख्य सचिवेभ्यः पत्रम् अलिखत् यत् एतत् आवंटनं सोमवासराद् प्रवर्तयिष्यते इति। भाजपादलम् आगामि राज्यनिर्वाचनाय अनेकेषाम् अभ्यर्थिनां सूचीम् अघोषयत्। पुदुच्चेरीतः राज्यगृहमन्त्री नमशिवायम्, दलस्य राज्याध्यक्षः बीपी रामलिंगमः, विधानसभाध्यक्षः आर सेल्वम् इत्येतैः सह 10 निर्दिष्टस्थानानां कृते प्रत्याशिनः घोषिताः। अद्यावधि मुख्यमन्त्रिणा एन रंगास्वामिना सह 35% अभ्यर्थिनः घोषिताः सन्ति। भाजपेति दलेन असामराज्याय द्वितीया सूचिरपि प्रकाशिता, यत्र कृष्णसाहा जीवन गोगोई इत्येतयोः चयनं विशिष्टस्थानाभ्यां कृतमस्ति। केरलाय तृतीयसूच्याञ्च 11 अभ्यर्थिनः सन्ति, यत्र विधानसभायै मतदानं एप्रिल मासस्य 9 दिनाङ्के भविष्यति। परिणामानां घोषणा च मे मासस्य 4 दिनाङ्के भविष्यति। नवदेहल्यां ह्यः अस्य वर्षस्य भारत विद्युत शिखर सम्मेलनम् इत्यस्य तृतीये दिने भारत अफ्रीका सामरिक सहभागित्व सम्मेलनम् आयोजितम्। सभायाः अध्यक्षः ऊर्जामन्त्री मनोहरलालः आसीत्। अन्येषु उपस्थितेषु विद्युत नवीन पुनर्नवीकरणीय ऊर्जा राज्यमन्त्री श्रीपद नायकः, हरियाणा राज्यस्य मुख्यमन्त्री नयाब सिंह सैनी, मलावी देशस्य ऊर्जा खनन मन्त्रिणा डॉक्टर जीन मथंगा इत्यनेन सह अनेके अफ्रीका देशस्य मन्त्रिणः, उद्योग प्रमुखाश्च आसन्। ईरान सम्बद्ध प्रसार माध्यमाः उक्तवन्तः यत् इजरायल देशस्य डिमोना इत्यनेन सह नेगे परमाणु संशोधन केन्द्रयोः समीपस्थेषु क्षेत्रेषु ईरानेन क्षिपण्याः प्रत्याक्रमणं कृतमिति। एतानि आक्रमणानि ईरानदेशस्य वुशेर अथ नटांज परमाणु सौकर्येषु अमेरिका इजरायल देशयोः आक्रमणस्य प्रत्युत्तरे आसन्निति माध्यमैः प्रोक्तम्। अपरत्र इजरायल देशस्य अधिकारिणः परमाणु सम्बद्ध स्थलेषु कस्यापि प्रमुखाक्रमणस्य पुष्टिं न कृतवन्तः। सत्रस्यास्य आयव्यय संकल्पानुरूपं सूक्ष्म लघु मध्यम उद्यमोत्पादकानां निर्यातकानाञ्च समर्थनाय सर्वकारेण म्यूचुअल क्रेडिट गारंटी स्कीम इत्युक्ते MCGS इति योजना समारब्धास्ति। प्रियाः श्रोतारः, अन्ते क्रीडावार्तायां स्क्वैश क्रीडावार्ता। स्क्वैश क्रीडायाम् अनाहत सिंहः इत्येषा स्वदेशवासिनीं तन्वी खन्ना इत्येनाम् एकाङ्कस्य प्रत्युत्तरे अङ्कत्रयैः पराजित्य मुम्बईनगरे आयोज्यमानायां इण्डियन ओपन PSA स्क्वैश टूर कॉपर इति स्पर्धायाम्